एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रमुखाणाम् त्रयाणाम् दलानाम् नेतृषु संक्रमणकालिक न्यायस्य प्रक्रियाम् अग्रे वर्धयितुम् सत्यनिर्पण मेलायोगस्य विलोपितानाम् जनानाम् अन्वेषणायोगस्य च रिक्तपदाधिकारिणाम् नामानि परामृष्टुम् पुनः परामर्शन समितिम् संघटयितुम् निर्णीतम् वर्तते। प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य उपविष्टेन उपवेशेन संक्रमणकालिक न्याय सम्बद्धा योगे पदाधिकारिणाम् परामर्शनाय समितिम् संघटयितुम् प्रक्रियायाः अग्रे सारणाय सहमतिर्धृता स्थिति प्रधानमन्त्रिणः विज्ञ परामर्शदाता अग्नि खरेलः अज्ञापयत्। उपवेशे प्रधानमन्त्री केपी शर्मा ओली, नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा, नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड, गृहमन्त्री रमेश लेखक इत्याद्या नेतार सहभागिन आसन्। इतपूर्वं पूर्व प्रधान न्यायाधीशस्य ओम प्रकाश मिश्रस्य नेतृत्वे संघटितया समित्या कस्यापि पदाधिकारिणः नाम परामृष्टुम् सक्तम् नासीत्। सर्वकारेण नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकम् कुलमान घिसिङ इत्यमुम् पदात् निष्कासयितुम् निर्णीतम् वर्तते। ह्य सायम् उपविष्टेन मन्त्री परिषदः उपवेशेन घिसिङ इत्यमुम् पदात् निष्कासयितुम् निर्णीतमिति कृषि मन्त्री रामनाथ अधिकारी अज्ञापयत्। ऊर्जो मन्त्रालयेन घिसिङ इत्यस्मै पृष्ठस्य स्पष्टीकरणस्य उत्तरम् पर्याप्तम् न प्राप्तमित्यतः मन्त्रालयेन घिसिङ इत्यस्य निष्कासनस्य प्रस्तावः मन्त्रिपरिषदे प्रस्तुतः आसीत्। अत्रान्तरे सर्वकारेण नेपाल विद्युत प्राधिकरणस्य रिक्त कार्यकारी निर्देशक पदे हितेन्द्र देवसाक्यम् नियुक्तुम् निर्णीतम् वर्तते। मन्त्रिपरिषद ह्यस्तनोपवेशेन घिसिङ इत्यस्य पदात् निरसनानन्तरम् साक्यः कार्यकारी निर्देशक पदे नियुक्तो वर्तते। ह्यस्तनोपवेशेन नेपाल राष्ट्रकोषस्य अधिशासकस्य नियुक्तये अर्थमन्त्रिणः संयोजकत्वे त्रिसदस्यीय परामर्शन समितिश्च संघटिता वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति प्रशासने स्थित्वा अनुचित कार्याणाम् कर्तृणाम् दण्डनस्य अधिकारः नागरिकेषु भवति। सोलुखुम्बु जनपदस्य नेचासल्यान ग्रामपालिकायाम् ह्य आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः संघीय लोकतान्त्रिक गणतन्त्रे प्रत्येकम् नागरिकः स्वस्य सार्वभौम सत्तायाः स्वयमेव स्वामी भवतीति व्यवस्था भवतीति अगदत। राष्ट्रपतिः पौडेलः स्वतन्त्रता शासन प्रणाली च समयस्य याचना जनतायाः इच्छा च स्त इत्यतः नेपाली जनतायै आत्मना निर्मितात् संविधानात् वैस्थिते निरंकुशता अराजकता च स्वीकार्ये नभवत इति अगदत। राष्ट्रपति पौडेलः देशस्य युवशक्तेः विदेश पलायनस्य प्रवृत्तिम् रोद्धुम् ग्रामे एव वृत्त्युपार्जनस्य आयार्जनस्य च व्यवस्थायै जनता केन्द्रितानाम् नीतेः कार्यक्रमाणाम् आयव्ययकस्य च निर्माणम् कर्तव्यमिति बलम् प्रादात्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ गदति आयव्ययकस्य निर्माण समये प्रविधेः पूर्वाधाराणाम् निर्माणाय बलम् प्रदेयम्। आयव्ययकम् सीमस्रोतस्सु केन्द्रीभूय मन्त्रालयस्य अन्तर्गतै निकायैः विभागैश्च सह ह्य आयव्ययक योजना विमर्शन कार्यक्रमे संचार मन्त्री गुरूङ बृहत्तरोद्देश्यवत्यः योजनाः प्रस्तुतुम् विभागीय प्रमुखाणाम् ध्यानाकर्षणम् अकरोत्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः राधिकार्यालः सर्वकारीय निकायैः आषाढस्य पञ्चदशम् दिवसम् यावत् आयव्ययकम् स्वीकर्तव्यम् एवं उत्पादनमूलक नवीनोद्देश्यवतीनाम् जनमुखी योजनानाम् निर्माणम् कर्तव्यम् चेति अन्वरुणात। कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य अध्यक्ष डाक्टर महेन्द्र विष्टः सार्वजनिक सेवा प्रसारण नेपालस्य कार्यम् प्रभावकारी विधातुम् कर्मचारिणाम् व्यवस्थापनम् भौतिक प्राविधिक पूर्वाधारस्य निर्माणम् च अपरिहार्य स्तः इति असूचयत्। प्रतिनिधि सभायाः अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समित्या परिणाम दर्शनत्वेन कार्यम् विधातुम् संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य ध्यानाकर्षणम् विहितम् वर्तते। समितेः ह्यस्तनोपवेशेन मन्त्रालयस्य कार्यप्रगतेः आगामी योजनायाः रणनीतेश्च विषयान् विमृश्य संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयम् उत्तरवाहितया कार्यम् विधातुम् विधीयमानानि कार्याणि च प्रभावकारिणी विधातुम् च ध्यानाकर्षणम् विहितम् अस्ति। विमर्शने सांसदाः देशस्य विभिन्नेषु भागेषु निर्मितानाम् विमानस्थलानाम् सञ्चालनम् अन्येषाम् विमानस्थलानाम् निर्माणम् विमानस्थल पूर्वाधार विकासे लक्ष्यानुरूपम् कार्याभावम् च आधृत्य मन्त्रिणे प्रश्नान् अकुर्वन्। उपवेशे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेय मन्त्रालय अन्तर्गतानाम् संस्कृति पर्यटन नागरिकोड्डयन प्रवृत्तिनाम् महत्वपूर्णानाम् क्षेत्राणाम् आयव्ययस्य वर्धनस्य आवश्यकताम् दर्शितवान्। प्रतिनिधिसभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः उपवेशे ह्योऽपि हुतात्म दशरथ चन्द स्वास्थ्य विज्ञान प्रतिष्ठान विश्वविद्यालय विधेयके प्रकरणगतम् विमर्शनम् सम्भूतमस्ति। समिते ह्यस्तनोपवेशे विश्वविद्यालयस्य पदाधिकारिणाम् नियुक्तेः सेवा सौविध्यस्य पदमुक्तेश्च विषयेषु प्रकरणगतम् विमर्शनम् सम्भूतमस्ति। उपवेशेन विश्वविद्यालय सभया उपकुलपतेः नियुक्तिः विधास्यते। परामर्शन समितेः संस्तुतौ उपकुलपतिना अन्येषाम् पदाधिकारिणाम् नियुक्तेः प्रस्ताव स्वीकृतश्च वर्तते। उपविशे शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई नेपाले चिकित्साध्ययनस्य कृते स्थापयिष्यमाणस्य विश्वविद्यालयस्य पदाधिकारिणः प्रतिस्पर्धया चयनीयाः इत्यत्र बलम् दत्तवती। मकवानपुर स्थितस्य कुलेखानी जलविद्युत केन्द्रस्य त्रयहेव प्रभागाः पूर्ण सामर्थ्ये सञ्चालिताः सन्ति। कुलेखानी जलविद्युदायोजनायाः अनुसारेण शुष्क समयस्य प्रारम्भात् कुलेखानी जलविद्युत केन्द्रस्य प्रथमः द्वितीय तृतीयश्च प्रभागाः पूर्ण सामर्थ्ये सञ्चालिताः वर्तन्ते। कुलेखानी प्रथमस्य प्रमुख तारादत्त भट्ट कुलेखानी जलविद्युत प्रथम प्रभागेन 60 मेगावाट परिमिता विद्युत, द्वितीय प्रभागेन 32 मेगावाट परिमिता विद्युत, तृतीय प्रभागेन 14 मेगावाट परिमिता विद्युत च उत्पाद्यमानानि सन्तीति उत्पाद्यमानः सन्तीति अज्ञापयत्। इलाम जनपदस्य इलाम नगरपालिकाया दशम वडा क्षेत्रस्य भीरगाउँ स्थाने सेचना योजनायाः पुनर्निर्माणानन्तरम् कृषकैः खाद्यान्नैः व्यञ्जनानाम् अपि उत्पादनम् सहजतया विधीयमानम् वर्तते। प्रतिवर्षम् एकविधस्यैव अन्नस्य उत्पादनम् विधीयमानम् आसीत्। अधुना तस्मिन्नेव क्षेत्रे सेचना योजनायाः पुनर्निर्माणानन्तरम् कृषकैः एकवर्षाभ्यन्तरे त्रिविधानि अन्नानि उत्पाद्यमानानि वर्तन्ते। इति समाचाराः।